सुता सस्य दूतेषु चण्डेषु कोपान् दहच्छिन्दि भिन्दिति मां सज्जयस्तु मयूरं समारुह्य मा भैरिति त्वं पुरस्तस्य पाणि ममायाहि चेदम् प्रणं व्यास कृत्पादयोः ते पतित्वा प्रसाद्य प्रभो प्रार्थयेकवारं न वक्तुं च मोहं तदानीं कृपदे न कार्यान्तकाले मनाय पुते च सहस्राण्डभोक्ता त्वया शूरनामा हतस्तारकसिंहभक्तश्च दैत्यः ममान्तर्षिदिस्तं मनक्लेशमेकं नहंसि प्रभो किं करोमि त्वयामि अहं सर्वदा दुःखभारवसानो भवानेन बन्धुस्तदन्यं न याचे भवद्भक्तिरोगं सदा कृतभारं ममाधिं धृतं नाशयो मासुतत्वम्।